ओम नमो भगवते वासुदेवाय। अथ द्वितीयोऽध्यायः। श्री शुक उवाच, एवं पितरि संप्रवृत्ते तदनुशासने वर्तमान आग्नेयध्रो जम्बूद्वीपौ कसः प्रजा औरसवद्धर्मावेक्षमाणः पर्यगोपायत्। स च कदाचित् पितृलोककामः सुरवरवनिता क्रीडाचलद्रोण्याम् भगवन्तम् विश्वसृजाम् पतिमाभृतपरिचर्योपकरण आत्मैकाग्रेण तपस्व्याराधयाम् बभूव। तदुपलभ्य भगवानादिपुरुषः सदसि गायन्तीम् पूर्वचित्तिम् नामाप्सरसमभियापयामास। सा च तदाश्रमोपवनमतिरमणीयम् विविधनिबिडविटपिविटपनिकरसंश्लिष्टपुरटलतारूढस्थल विहङ्गममिथुनैः प्रोच्यमानश्रुतिभिः प्रतिबोध्यमानसलिलकुक्कुटकारण्डवकलहंसादिभिर्विचित्रमुपकूजितामलजलाशयकमलाकरमुपबभ्राम। तस्याः सुललितगमनपदविन्यासगतिविलासायाश्चानुपदम् खणखणायमानरुचिरचरणाभरणस्वनमुपाकर्ण्य नरदेवकुमारः समाधियोगेनामीलितनयननलिनमुकुलयुगलमीषद्विकचय्यव्यचष्ट। तामेवाविदूरे मधुकरीमिव सुमनस उपजिघ्रन्तीम् दिविजमनुजमनोनयनाह्लाददुघैर्गतिविहारव्रीडा विनयावलोकसुस्वराक्षरावयवैर्मनसि नृणाम् कुसुमायुधस्य विदधतीम् विवरम् निजमुखविगलितामृतासवसहासभाषणामोदमदान्धमधुकरनिकरोपरोधेन द्रुतपदविन्यासेन वल्गुस्पन्दनस्तनकलशकबरभाररशनाम् देवीम् तदवलोकनेन विवृतावसरस्य भगवतो मकरध्वजस्य वशमुपनीतो जडवदिति होवाच। का त्वम् चिकीर्षसि च किम् मुनिवर्यशैले मायासि कापि भगवत्परदेवतायाः विद्ये बिभर्षि धनुषि सुहृदात्मनोऽर्थे किम् वा मृगान् मृगयसे विपिने प्रमत्तान्। बाणाविमौ भगवतः शतपत्रपत्रौ शान्तावपुङ्खरुचिरावतितिग्मदन्तौ कस्मै युयुङ्क्षसि वने विचरन्न विद्मः क्षेमाय नो जडधियाम् तव विक्रमोऽस्तु। शिष्यायिमे भगवतः परितः पठन्ति गायन्ति सामसरहस्यमजस्रमीशम् युष्मच्छिका विलुलिता सुमनोऽभिवृष्टिः सर्वे भजन् त्रिषिगणा इव वेदशाखाः। वाचम् परम् चरणपञ्जरतित्तिरीणाम् ब्रह्मन्नरूपमुखराम् शृणवाम तुभ्यम् लब्धा कदम्बरुचिरम् कविटङ्कबिम्बे यस्यामलातपरिधिः क्वच वल्कलम् ते किम् सम्भृतम् रुचिरयोर्द्विजशृङ्गयोस्ते मध्ये कृशो वहसि यत्र दृशिः श्रिता मे पङ्कोरुणः सुरभिरात्मविषाण ईदृक् येनाश्रमम् सुभगमे सुरभीकरोषि लोकम् प्रदर्शय सुरित्तमतावकम् मे यत्रत्य इत्थमुरसावयवावपूर्वौ अस्मद्विधस्य मन उन्नयनौ बिभर्ति बह्वद्भुतम् सरसरासुधादिवक्त्रे कावात्मवृत्तिरदनाद्धविरङ्गवाति विष्णोः कलास्य निमिषोन्मकरौ च कर्णौ उद्विग्नमीनयुगलम् द्विजपङ्क्तिशोचीरासन्नभृङ्गनिकरम् सरैन्मुखम् ते योऽसौ त्वया करसरोजहतः पतङ्गो दिक्षुभ्रमन् भ्रमत एजयते क्षिणी मे मुक्तम् न ते स्मरसि वक्रजटावरूथम् कष्टो निलोहरतिलम् पटयेश नीवीम् रूपम् तपोधनतपश्चरताम् तपोघ्नम् येतत्तु केन तपसा भवतोपलब्धम् चर्तुम् तपोर्हसि मया सह मित्रमह्यम् किम् वा प्रसीदति स वै भवभावनो मे न त्वाम् त्यजामि दयितम् द्विजदेव दत्तम् यस्मिन्मनो दृगपिनो न वियाति लग्नम् माम् चारु शृङ्गर्हसि नेतुमनुव्रतम् ते चित्तम् यतः प्रतिसरन्तु शिवा सचिव्यः। श्रीशुक उवाच इति लुलनानुनयाति विशारदो ग्राम्यवैदग्ध्यया परिभाषया ताम् विबुधवधूम् विबुधमतिरधिसभाजयामास। सा च ततस्तस्य वीरयूथपतेर्बुद्धिशीलरूपवयश्रियौदार्येण पराक्षिप्तमनास्तेन सहायुतायुतपरिवत्सरोपलक्षणम् कालम् जम्बुद्वीपपतिना भौमस्वर्गभोगान् बुभुजे। तस्यामुह वा आत्मजान् स राजवर आग्नेयध्रो नाभि किम् पुरुषहरिवर्षेलावृतरम्यकहिरण्मय कुरु भद्राश्वकेतुमालसंज्ञान्नवपुत्रान् जनयत्। सा सूत्वाथ सुतान्नवानुवत्सरम् गृह एवापहाय पूर्वचित्तिर्भूय एवाजम् देवमुपतस्थे। आग्नीध्रसुतास्ते मातुरनुग्रहादौत्पत्तिके नैव संहननबलोपेताः पित्रा विभक्ता आत्मतुल्यनामानि यथा भागं जम्बुद्वीपवर्षाणि बभुचुः आग्निध्रो राजा तृप्तः कामानामप्सरसमेवानुदिनमधिमन्यमानस्तस्याः सलोकतां श्रुतिभिरवारुन्ध यत्र पितरो मादयन्ते सम्परेते पितरि नवभ्रातरो मेरुदुहित्रिर्मेरुदेवीं प्रतिरूपामुग्रतंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिमिति संज्ञा नवोदवहन् ओम स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पंचमस्कंधे आग्निध्रवर्णनम नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुशासि माम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।